एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। निर्वाचन आयोगेन आगामिनो मार्गशीर्षमासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधि सभायाः प्रदेशसभानां च सदस्यानां निर्वाचनाय समानुपातिक निर्वाचन प्रणाल्याः पक्षस्य मुद्रितानां मतपत्राणां प्रथम प्रदेशाय मधेस प्रदेशाय च परिवहनं प्रारब्धं वर्तते। समानुपातिक निर्वाचन प्रणाल्याः पक्षस्य प्रतिनिधि सभायाः प्रदेशसभानां च निर्वाचनाय इदानीं यावत् खोटाङ, ओखलडुंगा, सोलुखुम्बु, उदयपुर, सप्तरी, मोहोत्तरी, धनुषा, सिराहा, ताप्लेजुङ, पाँचथर, इलाम, झापा, संखुवासभा, तेह्रथुम, भोजपुर, धनकुटा, मोरङ, सुनसरी जनपदेषु मतपत्राणां परिवहनं सम्पन्नमिति आयोगो ज्ञापयति। प्रतिनिधिसभायाः समानुपातिक निर्वाचन प्रणाल्याः कृते कोटिद्वयस्य चतुर्णां लक्षाणां एकविंशतिः सहस्राणां च मतपत्राणां सप्तानामेव प्रदेशानां कृते कोटिद्वयस्य लक्षस्य चतुराशीतेः सहस्राणां च मतपत्राणां च मुद्रणं सम्पन्नं वर्तते। प्रत्यक्ष निर्वाचन प्रणाल्याः पक्षे ह्यो यावत् सप्तदश लक्षाणि मतपत्राणि मुद्रितानीति आयोगोऽसौ सूचयति। भक्तपुरस्थिते जनक शिक्षा सामग्री केन्द्र लिमिटेड संस्थाने उच्चैः सुरक्षया मतपत्राणां मुद्रणं सम्पाद्यमानं वर्तते। प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया निर्वाचन आचार संहितायाः कठोरेण पालनां कर्तुं कारयितुं च निर्दिशति। पोखरा नगरे ह्य आयोजिते जनपदाचार संहितानुगमन समितेः उपवेशे प्रमुख निर्वाचन आयुक्तः थपलिया आचार संहितायाः उल्लंघनं विहितं दृष्टं सद् तत्कालं आयोगे ज्ञापयितुम् अन्वरुणात्। असौ आयोगेन निर्धारितान् अनुगमनाधिकृतान् आचार संहितायाः उल्लंघनकर्तृभ्यः प्रत्याशिभ्यः चतुर्विंशतेः घण्टानाम् अभ्यन्तरे स्पष्टीकरणं स्पष्टुं निर्दिष्टवान्। प्रमुख निर्वाचन आयुक्तः थपलिया प्रत्याशिभिः सन्तोषजनके उत्तरे न प्रदत्ते प्रत्याशितायाः निरसनस्यापि अधिकारः निर्वाचन आयोगे अस्ति इत्यतः तत्सम्बद्धं विवरणं स्पष्टं लिखित्वा आयोगं प्रेषयितुं च निरदिशत्। निर्वाचन आयोगेन आगामिनो मार्गशीर्षमासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधि सभायाः प्रदेशसभानां च सदस्यानां निर्वाचनाय त्रिषु निर्वाचन चिह्नेषु सामान्य परिवर्तनं विहितं वर्तते। निर्वाचन आयोगस्य अभिलेखे उल्लिखितानां निर्वाचन चिह्नानां नामसु चिह्नेषु च ईषद् भिन्नता दृष्टा आयोगे विद्यमाने अभिलेखे निर्देशिकायां च उल्लिखितस्य विवरणस्य च मध्ये भिन्नता च प्राप्तेति हेतोः चिह्नानि परिवर्तितानि इति आयोगो ज्ञापयति। अस्मिन्स्य सप्तविंश दिवसस्य निर्णयस्य अनुसारेण प्रतिनिधिसभा प्रदेशसभा सदस्य निर्वाचन निर्देशिकया निर्दिष्टम् अधिकारं प्रयुज्य एतेषां निर्वाचन चिह्नानाम् अनुसूची परिवर्तितेति आयोगस्य सहायक प्रवक्ता कमल भट्टराई अज्ञापयत्। निर्वाचन आयोगेन आगामिनो मार्गशीर्षमासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च निर्वाचनस्य प्रयोजनाय निर्वाचन सामग्रीभिः आर्थिक व्यवस्थापनेन च सह सम्बद्धः प्रशिक्षक प्रशिक्षण कार्यक्रमः सञ्चालितो वर्तते। आयोगस्य काष्ठमण्डपस्य कान्तिपथवर्तिनी कार्यालये आयोजितस्य कार्यक्रमस्य शुभारम्भ कार्यक्रमे निर्वाचन आयुक्तः डाक्टर जानकी कुमारी तुलाधर अगदत् जनशक्ति परिचालनं निर्वाचन सामग्रीणां व्यवस्थापनं च निर्वाचनस्य महत्वपूर्णः पक्षः भवति इत्यतः तत्र सम्भावितां त्रुटिं रोद्धुं प्रशिक्षकैः कर्मचारिभिश्च संवेदनशीलैर्भाव्यम्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः कथयति प्रजातन्त्रस्य स्थायित्वस्य सुशासनस्य च संस्थापनम् आवश्यकं वर्तते। नेपाली कांग्रेस दल नेकपा माओवादी केन्द्रयोः व्यासनगर समित्या ह्य तनहु जनपदे आयोजितायाम् अन्तरक्रियायाम् वरिष्ठ नेता पौडेलः अगदत् लोकतन्त्रस्य संकटे निपातनाय खेल विद्यमानो वर्तते। ग्रामेषु विकास वृत्त्युपार्जनं च वर्तमान आवश्यकता अस्तीति चर्चयन् वरिष्ठ नेता पौडेलः अब्रवीत् विदेशं गन्तुकामायाः युवशक्तेः कृते स्वदेशे संस्थितेः वातावरणं निर्मातव्यम्। नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्षा पुष्पकमला दाहला प्रचण्डः कथयति वर्तमानं वामलोकतान्त्रिकं गठबन्धनं निर्वाचनस्य अपेक्षया संविधानस्य रक्षायै निर्मितमस्ति। या गोर्खा जनपदे विभिन्न व्यवसायेषु आबद्धाभिः व्यक्तिभिः सह विहितायाम् अन्तरक्रियायाम् अध्यक्षा प्रचण्डः गठबन्धनस्य सर्वैः दलैः दायित्ववायुभिः भूत्वा निर्वाचने प्रतिस्पर्धिष्यते इति विश्वासं व्यक्तवान्। नेपाल समाजवादी दलस्य अध्यक्ष डाक्टर बाबुराम भट्टराई कथयति नेपाली कांग्रेस दलेन सह सम्बन्धः नैर्वाचनिक समन्वयाय एव नास्ति। नेपाली कांग्रेस दलस्य गोर्खा जनपद दल कार्यालय ह्या आयोजित कार्यक्रमे डाक्टर भट्टराई अवोचत विकास समृद्धि कृते कांग्रेस दलेन सह सहकार्याय दीर्घकालिक महत्व प्रदत्तमस्ति। अध्यक्ष डाक्टर भट्टराई प्रतिगमनस्य प्रतिरोधनस्य क्रमेपि आत्मभि एकीभूतमित्यतः वामपन्थिनः नेपाली कांग्रेस दलस्य च सहकार्येण विना देशे स्थिर शान्ति राष्ट्रिय एकता विकास समृद्धि च न सम्भवन्तीति न्यश्चिनोत। नेपाली कांग्रेस दलस्य नेता कृष्ण प्रसाद सिटौला भाषते निर्वाचनम जनतायाः अधिकाराय जनसेवकानाम् चयनाय च विधीयमानं वर्तते। झापा जनपदस्य भद्रपुरे ह्या आयोजिते कार्यक्रमे नेता सिटौला निर्वाचनम नहि काण्डपि जनान् सांसदान् मन्त्रिणश्च विधातुं वर्तते अपितु जनताम् इतोऽपि शक्तिशालिनीं विधातुम् अवसरोस्तीति अगदत्। लोकतन्त्रस्य युद्धं संचलदस्तीति हेतोः जनतायै प्रसन्नता समृद्धि प्रवृत्ति शब्दाः पर्याप्ताः न भवन्तीति चर्चयन् असौ जनतायाः वास्तविक प्रसन्नतां समृद्धिं च दातुं बलम् अददात। नेकपा माओवादी केन्द्रस्य नेता वर्षमान पुन भाषते संक्रमणकालिक न्यायम तार्किक निष्कर्षे प्रापयितुं कांग्रेस माओवादी दलयो मेलनम आवश्यकम वर्तते। सत्ता गठबन्धनस्य दलै रोल्पा जनपदस्य मुख्यालय लिवाङ स्थाने ह्य आयोजिते पत्रकार सम्मेलने नेता पुन अभाषत शान्ति प्रक्रियाया मुख्य सहकारिणो कांग्रेस माओवादी दलयो सहकार्येण विना शान्ति प्रक्रियाया अवशिष्टानि कार्याणि न पूरयिष्यन्ते। गृहमन्त्री बालकृष्ण खाँड गदती भैरवा वर्तिना गौतम बुद्धान्तर राष्ट्रिय विमानस्थलेन आर्थिक समृद्धे द्वारम् अनावृतम् वर्तते। भैरवास्थाने ह्य आयोजिते कार्यक्रमे गृहमन्त्री खाँड अवोचत विमानस्थले सृष्टेष् वृत्त्युपार्जनावसरेष् स्थानीय जनै प्राथमिकता प्राप्तव्या। विमानस्थलात् वस्तु परिवहन संचालनाय यत्न विधीयमानोऽस्ति इति वर्णयन् असौ वस्तु परिवहनस्य संचालनमनु कृषि सम्बद्धानि औद्योगिकानि च उत्पादनानि अन्तर्राष्ट्रियापणेषु प्रापय्य स्थानीय वासिनां कृते वृत्त्युपार्जन वर्धनात्मिका योजना स्थिति अकथयत। डेंगू रोगस्य संक्रमणं सप्तसप्तत्यामेव जनपदेषु प्रसृतम् अस्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। गत श्रावण मासात् अधुनावधि अष्टात्रिंशत् सहस्रेषु अष्टादशाधिक नवशतेषु च जनेषु डेंगू रोगस्य संक्रमणं पुष्टीभूतमिति मन्त्रालयेन ज्ञापितम् अस्ति। डेंगू रोगस्य संक्रमणेन अधुनावधि सप्तचत्वारिंशत् जनाः मृताः सन्ति। मन्त्रालयेन डेंगू रोगस्य संक्रमणस्य निरोधनाभियानं तीव्ररूपेण संचालितम् अस्तीति ज्ञापितं वर्तते। कतिचित् दिनेभ्यः पूर्वं दूरापन्नाभ्यां जलविप्लव भूस्खलनाभ्यां कर्णाली प्रदेशे दश सहस्राणि चतुर्दशाधिक सप्तशतञ्च जनाः गृह परिवार विहीनाः सन्ति। सुर्खेतवर्तिनः कर्णाली प्रदेश प्रहरी कार्यालयस्य अनुसारेण सर्वाधिक रूपेण मुगु जनपदे पञ्चसहस्राणि द्व्यशीत्यधिक शतद्वयञ्च जनाः गृह परिवार विहीनाः सन्ति। एवमेव जलविप्लव भूस्खलनाभ्यां कर्णाली प्रदेशे सहस्रं सप्तशतं विंशतिश्च गृह परिवाराः विस्थापिताः सन्तीति प्रदेश प्रहरी कार्यालयेन ज्ञापितं वर्तते। जलविप्लव भूस्खलनेषु निपत्य कर्णाली प्रदेशे षट्त्रिंशत् मृताः विंशतिर्जनाः विलुप्ताश्च वर्तन्ते। इति समाचारः।